भक्त प्रिया बिभर्ति यः कण्ठे तस्य अवश्यं जगत्त्रयम्।
ओम।